तृतीयं दशकम् भक्तस्वरूपवर्णनम् भक्तिप्रार्थना च पठन्तो नामानि प्रमदभरसिन्धौ निपतिताः स्मरन्तो रूपं ते वरद कथयन्तो गुणकथाः चरन्तो ये भक्ताः स्त्वयि खलु रमन्ते परममून् अहम् धन्यान्मन्ये समधिगत सर्वाभिलषितान् गदक्लिष्टम् कष्टम् तव चरणसेवारसभरेऽपि अनासक्तम् चित्तम् भवति बत विष्णो कुरु दयाम् भवत्पादाम्भोज स्मरण रसिको नाम निवहान् अहम् गायं गायं कुहचन विवत्स्यामि विजने कृपाते जाता चेत् किमिव न हि लभ्यम् तनुभृताम् मदीयक्लेशौघ प्रशमन दशा नाम कियति न केके लोकेऽस्मिन्न निशमयि शोकाभिरहिताः भवद्भक्ता मुक्ता सुखगतिमसक्ता विदधते मुनि प्रौढारूढा जगति खलु गूढात्मगतयो भवत्पादाम्भोजस्मरणविरुजो नारदमुखः चरन्तीशस्वैरम् सततपरिनिर्भातपरचित्परानन्दाद्वैतप्रसरपरिमग्नाः किमपरम् भवद्भक्तिस्फीता भवतु मम सैव प्रशमयेत् अशेषक्लेशौघम् न खलु हृदि सन्देहकणिका न चेद्व्यासस्योक्तिस्तव च वचनम् नैगमवचो भवेन्मिथ्यारथ्या पुरुषवचन प्रायमखिलम् भवद्भक्तिस्तावत् प्रमुखमधुरा त्वद्गुणरसात् किमप्यारूढा चेदखिल परिताप प्रशमनी पुनश्चान्ते स्वान्ते विमलपरिबोधोदयमिलन् महानन्दाद्वैतम् दिशति किमतः प्रार्थ्यमपरम् विधूय क्लेशान्मे कुरु चरणयुग्मम् धृतरसम् भवत्क्षेत्रप्राप्तौ करमपि च ते पोजनविधौ भवन्मूर्त्यालोके नयनमथ ते पादतुलसी परिघ्राणे घ्राणम् श्रवणमपि ते चारुचरिते प्रभूताधिव्याधिप्रसभचलिते मामकहृदि त्वदीयम् तद्रूपम् परमसुखचिद्रूपमुदियात् उदञ्च द्रोमाञ्चो गलितबहुहर्षाश्रुनिवहो यथा विस्मर्यासम् दुरुपशमपीडापरिभवान् मरुद्गेहाधीश त्वयि खलु पराञ्चोऽपि सुखिनो भवत्स्नेही सोऽहम् सुबहु परितप्ये च किमिदम् అకీర్తిస్తే మాభూద్వరద గదభారం ప్రశమయన్ భవద్భక్తోత్తంసం ఝటితి కురు మాం కంసదమన కిముక్తైర్భూయోభిస్తవ హి కరుణాయావదుదియాత్ అహం తావద్దేవ ప్రహిత వివిధార్థ ప్రలపితః పురక్లిప్తే పాదే వరద తవ నేష్యామి దివసాన్ యథాశక్తి వ్యక్తం నతినుతి నిషేవా విరచయన్. ఓం నమో భగవతే వాసుదేవాయ.